ॐ वागर्दविव सम्प्रक्तौ वागर्दप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ ये ॐ येनाक्षरसमान्यायम् अधिगम्यं महेश्वरात् कृष्णं व्याकरणं प्रोक्तं पाणिनये नमः ॐ
तस्मै
पाणिनये नमः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः भगिनि
ओ क्षम्यतां म्यूट् मध्ये अहं वदामि हा धन्यवादः भगिनि धन्यवादः सुन्दरम् अद्य किं कुर्मः गतवर्गे शिवरूपा भगिनी बहु किमपि सम्भाषणविषये पठितवती अपि अवगतवती इति मन्ये अहं किं करोमि अद्य अपि तदेव एकवारं पठामः वा सर्वे
आं भगिनि
कोऽपि तत् करपत्रं पश्यति वा शिवरूपा भगिनी
आं भगिनि अहं पश्यामि
हा हा उत्तममेव न भगिनि
आं भगिनि इट् इस् वेरि नैस् इट्स् लैक् यु नो एव्री डे कान्वर्सेशन् वेरि
तद् अहमपि तदेव सोचयामि अस्तु अधुना सर्वं सर्वस्य पार्श्वे अस्ति वा तत् लिङ्क् अहम् एकवारं पुनः प्रेषयामि किम् अर्थं चेट् मध्ये प्रेषयामि कृपया उद्घाटयतु सर्वे उद्घाटयन्तु
आं भगिनि
अस्ति न तत्र अस्ति तत्र अस्तु किं प्रथम तु संस्कृतव्यवहार साहस्री साहस्री इत्युक्ते किं
थौसण्ड्
ओन्लि उत्तमम् उत्तमम् अस्तु हा शिवरूपा भगिनी पठतु भगिनी आरम्भं करोतु तदनन्तरम् अन्य अन्य
किं वदामि भगिनि
संस्कृतव्यवहार साहस्री अनुक्रमणिका कण्टेण्ट् इति
संस्कृतव्यवहार साहस्री अनुक्रमाणिका शिष्टाचारः
अनुक्रमणिका
अनुक्रमणिका
इत्युक्ते किम् अनु किं क्रमणिका इत्युक्ते किम्
अनु मीन्स् फालोयिङ्ग् रैट् भगिनि
क्रम इत्युक्ते
नेम्बर् आर्डर्
आर्डर् तदेव आर्डर् अनुक्रमके क्रमणिका इत्युक्ते इन् आर्डर् सम् कैण्ड् आफ् आर्डर् इस् देर् नो हा हा अनुक्रमणिका इति कीदृशपदं भगिनि
अनुक्रमणिका स्त्रीलिङ्ग आकारान्त अस्ति भगिनि
उत्तमम् अग्रिमम्
शिष्टाचारः
शिष्टाचारः कामन् फार्मुला वेरि इण्ट्रेस्टिङ्ग् दिस् इण्टर्प्रिटेशन् ऐ वुड् हव् नेवर् एवर् गस्ट् देट् इण्टर् यु नो बट् गुड् प्राक्टिसेस् शिष्टाचारः आचार इत्युक्ते किम्
आचार मीन्स् ट्रेडिशन् भगिनि
ट्रेडिशन् इत्युक्ते किं ट्रेडिशन् इत्युक्ते किं किं तत्र धातु किम्
आचारः
कुतः आयाति च आचारः इति पदं कुतः आयाति ऊहां करोतु
आचारः पुंलिङ्गशब्दः अस्ति भगिनि
हा हा किन्तु धातु किं तत्र ऊहां करोतु कोऽपि ऊहां करोतु
चरदातु
चर् इत्युक्ते किं
चर् अहमपि अष्टाध्यायी
चर् इत्युक्ते गतौ मूवमेण्ट्
गतवान् आमां भगिनि
मूवमेण्ट् चलना हिन्दी में क्या बोलते चलना गाडी चली पंखा चला हम चले यु नो लाइक दैट So, movement is called char. Char dhatu ityukte kim? Movement. See, everything is movement related. All activity is nothing but movement. Think about that. If there is no movement of any kind, then that is not considered to have any activity. Am I right? So, tradition, what you said is correct. But what is tradition? See, imagine that for thousands of generations, people have been celebrating Dasara. Beautiful Dasara festival is coming. Everybody is celebrating. Now, this one generation, everybody knows about it. The full knowledge of Dasara is there, but nobody moves. There is no movement in that. Then will you call it following tradition? It has to include movement. It is based on movement. All actions are based on movement. Something has to move. Energy has to move. Physical body has to move. Objects have to move. Hands have to move. Thought has to move. Mind has to move. It's all about movement. That is why they say, you know, in our greatest gurus, Charachara. I bow to all that moves and all that does not move. There is nothing left in this entire existence or non-existence, whatever you can conceive of. If you say Charachara, it means Chara and Achara. Nothing is left. It is so completely all-inclusive. So, Shishtacharah. Agrimam patatum.
Aham bhagini. Harihi om.
Na, milanam. Kutra bhagini. Shishtacharah.
Aham bhagini. Milanam bhagini.
Dhatu kim tatra? Dhatu kim?
मिल् धातु भगिनि
मिल् धातु उत्तमम् अग्रिमं
सरलवाक्यानि
लिङ्गं किं
वाक्यानि बहुवचनं नपुंसकलिङ्गम् अस्ति भगिनि
उत्तमम् उत्तमम् अन्यं
सामान्यवाक्यानि
सामान्यवाक्यानि अग्रिमं
मित्रमिलनं प्रयाणम्
प्रयाणम् इत्युक्ते किम्
प्रयाणम् इत्युक्ते गोयिङ्ग् टु फ्रम् वन् प्लेस् टु अदर् प्लेस्
यात्रा प्रयाणं तु नपुंसकलिङ्गमेव
प्रवासातः प्रतिनिवर्तनम्
पुनः पठतु
प्रवासतः प्रतिनिवर्तनम् प्रवासातः प्रतिनिवर्तनम्
प्रवासतः भगिनि प्रवासातः तु न प्रवासतः इत्युक्ते किं सः आयाति अन्ते सः किं करोति तत्र
वियोगः पञ्चमी विभक्ति अस्ति
प्रवासतः फ्रोम् प्रवास प्रतिनिवर्तनम् प्रतिनिवर्तनं प्रति इत्युक्ते टुवर्ड्स् निवर्तनं आन् अरैवल् आने आने पर् आने से तदनन्तरं
ऐ विल् रीड् वन्स् अगेन् दट् वर्ड् भगिनि प्रवासतः प्रतिनिवर्तनं
उत्तमं
छात्राः परीक्षा चलनचित्रं
परीक्षा परीक्षा इत्युक्ते किं धातु किं
पर्धातु
ईक्षस्य बन्ता है न आक् लुक् एट् द वर्ड् आक् आल्सो कम्स् फ्रम् ईक्ष ओन्लि ईक्षते इत्युक्ते किं पश्यति पश्यति इत्युक्ते ईक्षते ईक्षधातु ईक्षधातु उत्तमम् अग्रिमं
चलनचित्रं शिक्षकः स्त्रियः पाकः
स्त्रियः कीदृशपदं स्त्रियः
स्त्रियः स्त्रीलिङ्गपद न भगिनि यः स्त्रियः
कीदृशपदं तत्र
बिट् कन्फ्यूस्ड् भगिनि हियर् दे हाव् गिव् हियर् दे हाव् गिवन् वुमेन् बट् इट्
इस् स्त्रीलिङ्ग एव
स्त्रीलिङ्ग बहुवचन
बहुवचनरूप अस्ति नौ प्लीस् डोण्ट् टेल् दिस् इस् पुल्लिङ्ग
सो अत्र करपत्रे सर्वं तु समीचीनं नास्ति
न भगिनि बहुवचनमस्ति बहुवचनं
स्त्रियः तु बहुवचनं किं स्त्रीलिङ्गं पदमेव विमिन् तदनन्तरं विमिन् एकवचनमस्ति चेत् वदतु
स्त्रिया
स्त्रिया वा
स्त्री स्त्री भगिनि स्त्री
किम् अन्य एकं पदं वदतु
नदीवत्
नदीवता
स्त्रियौ स्त्रियः
वेन् यु गो टु सम् प्लेस् इट् विल् से नो स्त्री पुरुष सेपरेट् सेपरेट्
ओके
स्त्री
नदीवत् स्त्री ओके
स्त्रियः उत्तमम् अग्रिम
पाकः वेषभूषणानि कार्यालयः
वेषभूषणानि इति पदस्य किमपि वदतु
विशेषणविशेषभावः अस्ति वा भगिनि
कुत्र एकमेव पदं
वदतु सो नपुंसकलिङ्गं बहुवचनपदं भगिनि
वेषभूषण भूषणानि आभूषणम् एकम् अन्यपदमस्ति वेषभूषणानि वेषभूषणं वेषभूषणे वेषभूषणानि तदेव
कार्यालयः आरोग्यं समयः दूरवाणी वाणिज्यं
वाणी
vanijyam
jyam vanijyam
vanijyam vatavaranam gruha sambhashanam pitaraha
gruha sambhashanam ityukte kim
gruha sambhashanam ityukte daily conversations among family members bagini
it seems like that no gruha sambhashanam
but the english explanation is very funny in this
no english is very this is you know written by ha so it's not very proper it gives us an idea
it gives a direction as to what we should think about
direction only that's why I'm saying we don't just assume because Gita Bhagini has posted it must be perfect no first of all Gita Bhagini is not perfect and what I post is also not perfect.
no the Sanskrit one is good Sanskrit one is good but English you know you can't help it's that language cannot be used to translate
translational
also you will find errors Mahodaya in this typing everything so keep your eyes and ears open listen carefully sometimes errors are there so please listen ha karoto bhagini
pitaraha putraah cha
ha
mata pitaraha
ha iti padasya vishaya vadatu
mata pitaraha pitaraha पुंलिङ्ग एकवचनपदमस्ति भगिनि
अत्र तु एकमेव पदं भगिनि माता
मातापितरः
सामान्यतया मातापितरौ इति अहं पश्यामि
जगतः पितरौ वन्दे
पितरौ मातापितरौ किन्तु मातापितरः अपि दत्तम् अस्तु अग्रिमं
सुताः सङ्कीर्णवाक्यानि
सङ्कीर्ण इत्युक्ते किं
गिवन् मिसिलेनियस् भगिनि
सङ्कीर्ण इत्युक्ते मिश्रणं यत्र मिश्रणम् अस्ति तत्र सङ्कीर्णम् इति मिश्रणम् इत्युक्ते किं भिन्नभिन्नविषये अपि च मिश्रणं तत्र अस्ति न वाक्यानि मिश्रणं तु सङ्कीर्णवाक्यानि इति
इट् इम्प्लैस् टु सङ्कीर्तनम् आसो भिन्नभिन्न कीर्तन अस्ति वा भगिन अत्र
सङ्कीर्तनालाप सङ्कीर्तनालाप इस् देर् इन् दट् श्लोक फोर् अमृत
Now, Bhagini, if you'll go to that Balaji, Annamaya Sankirtana is there. So I'm asking for Sankirtana is Binna Binna Padaha Kirtana.
See, Kirtana also is our own interpretation of that word, na?
Oh, Sankirna.
I'll have to look it up to be confirmed to tell you. I'll have
to okay, Bhagini. Atitihi. Atitihi.
अतिथिः इत्युक्ते किम्
अतिथिः इत्युक्ते अतिथिदेवो भव गेस्ट्
किन्तु किमर्थम् अतिथिः गेस्ट् अस्ति
अतिथि मीन्स् एक्साक्ट्लि हौ
ऊहां करोतु भगिनि ऊहां करोतु कोऽपि ऊहां करोतु कोऽपि
सो विच् कम्स् अण्ड् गोस् भगिनि लैक्
अपि अतिथि इत्युक्ते कोऽपि वदतु तिथि इत्युक्ते किम्
तिथि इत्युक्ते
दिनस्य
दिनस्य तिथि
इत्युक्ते हा पञ्चाङ्ग इति वदति
आं भगिनि
सर्वं दत्तं तत्र किन्तु अतिथि किं करोति किमपि पदस्य साधारणतया नै तत्पुरुष इत्युक्ते अभावे इत्युक्ते किं नाट्
not that.
Not,
it negates, not that. Abhava. So, atithi ityukte kim? One who comes at their own time, no, you don't know, is not planned on your calendar.
Yes, Bhagini.
That is a guest.
Oh, okay, okay. That is the real meaning of atithi.
That is the real guest. See, nowadays you have to... I now notice somebody comes to my house, mostly my friends, they just walk in. They don't even knock because I've asked them, please stop, you know, just walk in. My friends will just walk in, but usually other people's friends will come. They'll be on the driveway and they'll text. I'm here. That means like... there is no, it's not like non-announcement. Firstly, it has all been organized. Time is ready, date is ready, everybody knows she's waiting, he's waiting, everybody's waiting. Then at their time, they'll come and they'll pull up on the driveway and text and say, I'm waiting outside. It's a new trend I see. So there is nothing atithi about it. But traditionally, when you go into our history, nobody knew, no? Nobody knew when who was coming.
Bhagini, earlier days it used to be happened because there were no communication, right?
No phone.
Now communication no is there. So.
And also people knew they were always welcome.
Yes, Bhagini.
It's a very important aspect.
Yeah, very true, Bhagini.
You were always welcome.
And that. People used to always stay at home only. There was no other outing also for them. So, whenever people used to come, they used to always receive them at home. So they used to be available at home also.
Yes, yes, very true.
Very true. And this concept wasn't there that, oh, I should not go and maybe I'll bother them. No, you don't feel awkward.
Yes, Bhagini. Yeah.
Now people feel awkward. They're like, oh, I didn't ask. I didn't go. Because this culture is changing. So this concept of atithi is now not even there. That is why somebody who comes as atithi is not treated as welcome, actually. Because we have become so used to having it planned. If it is unplanned, then they are not welcome. Which takes away the entire meaning of atithi. Atithi means deva bhava ityukte kim. Whether you know or you don't know, they are God.
Yes, Bhagini.
But now, if you come without me having agreed, you are not God. If you come having agreed, maybe I'll think about it.
Mm-hmm.
It's very different. So, this is very important to understand. Atithi. Agree, ma'am?
Subhashayaha.
Subhashayaha. Subhashayaha. Subhashayaha.
शुभ आशयः
उत्तमं धन्यवादः भगिनी
धन्यवादः भगिनी
अस्तु अग्रिमं शिष्टाचारः सुधा भगिनी पठतु शीघ्रं
आं भगिनी
एव
शिष्टाचारः हरिः ओम् सुप्रभातम् नमस्कारः नमस्ते
See how they translated namaste and namaskaraha. Wrong.
Good afternoon, good evening.
Patatu Bhagini.
Shubharatrihi. Dhanyavadaha. Swagatam.
Suagatam. Agatam, suagatam. Like Shubha Agatam. Like that. Suagatam. Your coming is a blessing, like that. Su agatam. Now see, Mahesh Mahodaya, this is for you to see. Patatu.
Shamyatam.
See?
Shamyatam aham vadami.
Astu, agrimam.
Chintam astu. Kripaya. Punaha milamaha. Astu. श्रीमन् मान्ये आर्ये साधु साधु समीचीनम्
साधु साधु समीचीनम् सर्वं सुलभमेव अस्तु हा अग्रिमं पठतु महेश महोदय
आं भगिनि मिलनं भवतः नाम किं, भवत्याः नाम किं, मम नाम महेशः, नाट् फिल्.
फिल् मम नाम.
फिल् इस् इङ्ग्लिश् नेम्.
इङ्ग्लिश् फिल् इस् एन् इङ्ग्लिश् नेम्. यु आर् रैट्. That too wrong spelling.
P is missing. एषः मम मित्रः. नामः मित्र. एषः मम मित्र. मम मित्रं दीक्षिका भगिनी.
किन्तु एषः महोदय.
एषः
लिङ्गं किं तत्र?
एषः पुल्लिङ्गः अस्ति. सुरेशः.
सुरेशः मित्रम्.
एतेषां विषये श्रुतवान् भूतकाले. श्रुतवान्
भूतकालार्थक. श्रुतवान् इत्युक्ते एकवचनरूपम्.
एकवचन.
द्विवचने अस्ति चेत्
श्रुतवन्तौ. श्रुतवन्तः.
उत्तमं. तदेव तदेव.
पुल्लिङ्गे अस्ति चेत्.
स्त्रीलिङ्गे
अस्ति चेत् श्रुतवती. श्रुतवत्यौ. श्रुतवत्यः.
श्रुतवत्यः. उत्तमम्. उत्तमं. हा. एतेषाम् इति पदस्य विषये.
एतेषां षष्टिविभक्ति बहुवचन. एषः एतद् एतद् शब्दस्य षष्टिवचन. षष्टिविभक्ति बहुवचनरूप.
एषः. एषः तु षष्टि न महोदय.
एषः एतद् शब्दस्य.
एतत् शब्दस्य. उत्तमम्.
एतत् शब्दस्य. एतत् प्रातिपदिकं.
हा. पूर्वस्मिन् वाक्ये एषः मम मित्रम्. एषः तत्र किम्?
एषः एतत् शब्दस्य प्रथमाविभक्ति एकवचनरूपं.
मम.
मम अस्मत् शब्दस्य प्रथमा षष्टिविभक्ति एकवचनरूपं.
षष्टिविभक्ति एकवचनम्. उत्तमम्. एते अस्तु. एकनिमिषं महोदय. शैलजा भगिनी अपि च दीप्षिका भगिनी स्वागतं. नमस्कारः. वयं किं
नमस्कारः भगिनि. नमस्कारः भगिनि.
नमस्ते
भगिनि. क्षम्यतां. विलम्बेन आगच्छामि.
चिन्ता मास्तु. चिन्ता मास्तु. चाट् मध्ये एकं लिङ्क् प्रेषयामि. पश्यति वा?
नो भगिनि. ऐ थिङ्क् ऐ जायिन् लेट् सो ऐ कुडन्ट्
एक्सेस् इट्. अस्तु. अहम् एकवारं पुनः प्रेषयामि अधुना. हा. लिङ्क् मध्ये सम्भाषणविषये साधारणसम्भाषणविषये किमपि बहु किमपि दत्तम्. अधुना तु शिष्टाचारः. प्रथम तु अनुक्रमणिका इति तु अभवत्. तदनन्तरं शिष्टाचारः प्रथमबिन्दु. तदपि अभवत्. अधुना मिलनं द्वितीयबिन्दु. महेश महोदय.
आम् आम् भगिनि.
पठतु महोदय. अवगतं भगिन्यौ? दीक्षिका भगिनी अपि शैलजा भगिनी अवगतं
भगिनी? आम् आम्. अस्तु दीक्षिका. ऐ केन् सी दट्.
आं भगिनि. ऐ केन् सी.
उत्तमं.
पठामि वा?
पठतु महोदय.
एषा मम सखी शिवरूपा.
एषा. एषा तु स्त्रीलिङ्गं रूपं.
प्रथमविभक्ति एकवचनरूपं. भवान् किं करोति उद्योगं? अहं संस्कृतं पठामि.
किमपि उद्योगं न.
किमपि उद्योगं न. संस्कृतं पठामि एव उद्योगम्.
उद्योगम् एक्चुलि इस् आल्सो लुक्ड् एट् एज् प्रोडक्षन्. लैक् वाट् आर् यु प्रोड्यूसिङ्ग्. किन्तु अत्र तु नालेज् ओन्लि. नाट् इवन् प्रोड्यूसिङ्ग् नालेज् बट् ड्वेलिङ्ग् वित् ट्रैङ्ग् टु ड्वेल् वित् नालेज्. भवान् किं करोति? हा. अग्रिमम्. महोदय
अस्मि अहं न अस्मि गीताञ्जलि भगिनी अस्मि अस्ति
भवती पुनः पठतु भगिनी महोदय
अहम् अध्यापकः अस्मि
भवती
भवती किं करोति अहं स्त्रीलिङ्गे ऊहामि तदापि उत्तरं ददामि अहं कार्यालये कार्यं करोमि
उत्तमम् उत्तमं तदनन्तरम्
अहम् अध्यापकः नास्मि
अहमपि नास्मि
अहम् अध्यापिका अस्मि स्त्रीलिङ्गे अस्ति चेत्
अध्यापिका अध्यापकः उत्तमम्
अधिकारी आफीसर्
अधिकारी कीदृशपदं
दीर्घ इकारान्त स्त्रीलिङ्गपदम्
अधिकारी अधिकारी इति पदस्य विषये किमपि वदतु
अधिकारी
अधि एकं शिवरूपा भगिनी वदतु अधिकारी विषये गतवर्गे वयं चर्चितवन्तः
आं भगिनि अधिकारी ईकारान्त पुंलिङ्गपदमस्ति भगिनि
अस्ति वा
अधिकारी
पुंलिङ्गं पदमस्ति वा स्त्रीलिङ्गमस्ति वा
अधिकारी पुंलिङ्गमस्ति भगिनि स्त्रीलिङ्ग अधिकारिणी
अधिकारिणी किम् अन्ते किं कीदृशपदम्
अन्ते नपुंसकलिङ्ग बहुवचन
न न न नकारान्त
अन्ते नकारान्त शब्द
लिङ्गं पुंलिङ्गं नकारान्तपदम् अस्ति अधिकारी
आं भगिनि
प्रथमविभक्ति अधिकारी गुणि गुणिन् गुणिवत् गुणिवत् गुणिन् एकं पदमस्ति गुणि गुणी इति प्रथमविभक्तिरूपम् अस्ति
राजन्वत् एव
राजन् तु न महोदय किञ्चित् गुणिन् एकम् अन्य एकनिमिषं महोदय गुणिन् पश्यतु कुत्र अस्ति पुटसङ्ख्या शब्दमञ्जर्यां तत्र दत्तं गुणिन् पश्यतु नकारान्त पुंलिङ्गं पदमस्ति
आमां भगिनि
पश्यति वा ओ करिन्
करिन् इति दत्तं
करिन् क्षम्यतां करिन् नकारान्त अस्ति प्रथमविभक्तिरूपं रूपाणि पठतु महोदय
करिणौ करिणः
अधिकारी अस्ति चेत् अधिकारिन्
अधिकारिन् अधिकारी अधिकारिण्यौ अधिकारिणः
समीकरोतु अधिकारी
अधिकारौ
न अधिकारी अधिकारिणौ
अधिकारिणौ अधिकारिणः
तदनन्तरं द्वितीय
अधिकारिणम् अधिकारिणौ अधिकारिणः अधिकारिणा अधिकारिणाभ्याम् अधिकारिणभिः
अधिकारिणिभिः
अधिकारिणिभिः
न अधिकरि करिभिः इत्युक्ते किम् अधिकारिभिः अधिकारिभिः
अधिकारिभिः अधिकारिणे अधिकारिभ्याम् अधिकारिभ्यः अधिकारिणः अधिकारिभ्याम् अधिकारिभ्यः अधिकारिणः अधिकारिणोः अधिकारिणाम् अधिकारिणि ह्रस्वै अधिकारिणि अधिकारिणोः अधिकारिषु
उत्तमं किञ्चित् भिन्न अस्ति तत्र सर्वाणि रूपाणि किञ्चित् भिन्न अस्ति तदेव वयं पुनः पुनः पठामः अपि योगिन् विद्यार्थिन् गुणिन् तत्र दत्तम् एवं गुणिन् धनिन् शशिन् स्वामिन् अपि स्वामिन् मन्त्रिन् सर्वे तदेव वहन्ति सर्वाणि पदानि नूतन एकं नूतनविषय उत्तमं उत्तमं पठतु महोदय
उट्टङ्कः टैपिस्ट्
टङ्क् 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 टङ्क्
उत्तमः तन्त्रज्ञः इञ्जिनियर्
इत्युक्ते टैप् रैटर् इत्युक्ते किं कोऽपि वदतु यन्त्रं तस्य
उट्टङ्कयन्त्रं
एकवारं पश्यतु कोऽपि टैप् रैटर् इत्युक्ते किं यन्त्रं यन्त्रस्य नाम किम्
टङ्क
उट्टङ्क उट्टङ्कयन्त्रं वा किम् उट्टङ्क
टङ्कक
टङ्कक टङ्कक तु टैपिस्ट् अत्र दत्तं
टैप् रैटर्
समानेव वा समानेव
टङ्कक
किमपि भेदः नास्ति तत्र
इद उट्टङ्ककः टैप् रैटर् टङ्ककः टङ्कक
टङ्कक तु प्रातिपदिकं न महोदय
टङ्कक नपुंसकलिङ्गपद अस्ति न्यूट्रल् जेण्डर्
ओ अस्तु 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 टङ्कक इति नपुंसकलिङ्गमस्ति वा
न्यूट्रल् जेण्डर् एन् एन् इति
you type typewriter why that's why oh no u asti tatra tang kaka eva u tatra nasti
aham chat madhye preshyame bhagini
adav u nasti tang kaka eva tang kaka tang kaka
टङ्ककं प्रथमव्यक्ति एकवचनरूप टङ्ककानि
अत्र तु उ आयाति आदौ आदौ इत्युक्ते आदौ इत्युक्ते
बिफोर् बिफोर्
आदौ विभक्तिरूपं किं
सप्तमी एकवचनं
सप्तमी प्रातिपदिकं किम्
आदि
आदि भूमिवत् भूमि
भूमिवत्
भूमौ भूमि भूमौ आदि आदौ
इत्युक्ते पुल्लिङ्ग
उत्तमम् उट्टङ्ककः सु टैपिस्ट् टङ्क टङ्ककम्
इत्युक्ते
उत्तमम् अग्रिमं
तन्त्रज्ञः इञ्जिनियर् प्राध्याप
किमपि विषये अपि ज्ञः आयाति इत्युक्ते ब्रह्मज्ञः इत्युक्ते किम् ब्रह्मज्ञः इत्युक्ते किं ब्रह्मज्ञानी
जिस्को ब्रह्म के बारे में कुछ ज्ञान हो
ब्रह्मन् का ब्रह्म नहीं ब्रह्मन्
ब्रह्मन् का ज्ञान हो
ब्रह्म हो तो
तदेव
स्तुच्वसन्धि अस्ति वा
ब्रह्म किं ज्ञा तु एकं धातु अस्ति महोदय
संयुक्ताक्षर अस्ति सम्मेलनम्
अस्तु उत्तमं पठतु मम पिता तन्त्रज्ञः अपि अस्ति
ओ नमस्कारः महोदय कथमस्ति
इलेक्ट्रिकल्
इञ्जिनियर् इत्युक्ते विद्युत्
तन्त्रज्ञः
टेलिकम्युनिकेशन्
Papaji devised, he created the radars that would be themselves undetectable.
Oh my God, no, superb.
At that time, like brand new technology. Like yes, have a radar. Radar is a detecting device.
Yes.
To make your own, the device itself to be undetectable.
Wow, superb.
How to hide the own device that does what others are trying to find.
उत्तमम् बहु उत्तमम्
सो सञ्चार पुनः वदतु सञ्चारतन्त्रज्ञ
सञ्चारविज्ञानी
उत्तमम् अग्रिमम्
प्राध्यापकः प्रोफेसर् लिपिकः क्लर्क् न्यायवादी लायर् न्यायवादी अपि च अधिकारी एकमेव प्रातिपदिकम् अस्ति वा न्यायवादिन्
न्यायवादिन् वा
नकारान्त
न्यायवादी केन् बि नैयायिकः
न इत्युक्ते किं न्यायवादिन् नकारान्त न्यायवादिनी न्यायवादिन् न्यायवादी हा गुणिन्वत् हा पापाजी पुनः वदतु
नैयायिकः
इत्युक्ते
हा नैयायिकः मीन्स् वन् लैक् ए जड्
नैयायिकः वा
जज्
नैयायिकः जज् नैयायिकः अग्रिमम्
अग्रिमम् विक्रयिकः सेल्स्मेन् आर् सम्बडि हू सेल्स्
विक्रेता
बोलते हैं ना हिंदी में विक्रेता
उपन्यासकः इस् लेक्चरर्
नोवेलिस्ट् नोवेलिस्ट्
पापाजी लेक्चरर् इत्युक्ते किं सम्बडि हू इस् नाट् अ गुरु नाट् अ टीचर् लेक्चरर् इत्युक्ते किं हू नरेट् नालेज् फ्रोम् वन् सोर्स् सिम्प्ली अ नेरेटर् नाट् अ गुरु गुरु एक्चुलि अध्यापक इस् सम्बडि हू हेज् सम् वेरि 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 फस्ट् लेवल् अण्डर्स्टाण्डिङ्ग् देन् इट् गोस् टु एट् लेवल् एण्ड् फैनलि युर् गुरु इस् वन् हू इस् देम्सेल्स् इस् एन् परमात्मा देट् इस् अ ट्रू गुरु अदर्वैस् वी आर् आल् जस्ट् मिडल् मेन् इन् टु इन् दट्
like a postman.
Ah, like postman. We are all middlemen. Because we also have not seen Paramatma, na? When you don't see Paramatma, then you are not the true Guru. Only that is called Guru. Otherwise, we are just all lecturer like. Uttamam, Dhanyavada Mahodaya.
Dhanyavada.
Agrimam. Shailija Bhagini Patatu.
Aam Bhagini. Aham. यन्त्राकारे कार्यं करोमि.
यन्त्राकारे इत्युक्ते
यन्त्राकारे इत्युक्ते फ्याक्टरि भगिनि.
विभक्तिरूपं किं तत्र?
यन्त्राकारे इट् इस् पुल्लिङ्गशब्दः सप्तमी विभक्ति और
पुंलिङ्ग वा नपुंसकलिङ्ग वा कथं जानीमः?
डिक्शनरी स्पोकन् संस्कृत पे देख रहे हैं.
पश्यतु
भगिनी. यन्त्राकारम् अहं नपुंसकलिङ्गं वा पुल्लिङ्ग वा डौट् ऐम् जस्ट् चेकिङ्ग् भगिनी. ऐम् जस्ट् चेकिङ्ग् इट् आन् स्पोकन्. यन्त्राकारे पुल्लिङ्गशब्दः भगिनि. यस् इट् इस् पुल्लिङ्गशब्दः सप्तमी विभक्ति कार्यालये यन्त्राकारे
अस्ति चेत् अपि च एकम् अन्यपदम् अस्ति यन्त्रागारः. गार् अपि अस्ति कार् अपि अस्ति तत्र.
यस् भगिनि यन्त्रागार यन्त्रशाला Yantragara is Napunsakalinga Padam. And all linga, in all lingams, factory is there. Yantra Shala is also Sri Linga Shabdaha. Yantrakare is Pullinga Shabdaha.
Yantragaram, Yantrakaraha, Apicha, Yantra Shala. Trishulingeshu, Rupani Santi Tatra.
आं भगिनि
उत्तमं.
त्रीणि लिङ्ग इट्स् देयर् इन् आल् द त्री लिङ्गम्स्
लिङ्गानि. उत्तमम्. अग्रिमं
कार्यालये इन् एन् आफीस् कार्यालये इति शब्दः कार्यालये पुल्लिङ्गशब्दः एण्ड् सप्तमी विभक्ति रामशब्दवत् महाविद्यालये
कार्यालय. एकनिमिष एकवारं पुनः पश्यामि.
कार्यालय पुल्लिङ्ग.
एकनिमिष नपुंसकलिङ्गं वा
नपुंसकलिङ्गम्?
एकनिमिष एकवारं पश्यामि. पुंलिङ्ग कार्यालयः इति दत्तं पापा पुंलिङ्गं पदम्. एकम् अन्य अपि भवितुम् अर्हति वा? कार्यालय पापा कार्यस्थान कार्यस्थान तु नपुंसकलिङ्गं कार्यस्थानं किन्तु कार्यालयः इति अस्ति अत्र. कार्यस्थानं नपुंसकलिङ्गं किन्तु कार्यालयः तु पुंलिङ्गं दत्तम्. अग्रिमं पठतु भगिनि.
आं भगिनि महाविद्यालये इन् ए कालेज् महाविद्यालये इट् इस् पुल्लिङ्गशब्दः अगेन् एण्ड् सप्तमी विभक्ति
विद्यालयः.
महाविद्यालय इस् प्रातिपदिक रामशब्दवत्.
उत्तमम्.
Vittakoshe. Vittakoshe is a bank, in a bank. Vittakoshe, I'm checking, Bhagini.
Vitta ityukte kim?
Vitta, is it a seed or something like that, Bhagini? I'm not sure.
Vitta ityukte dhana, no? Vitta ityukte kim, Papa? Finances, no? Acquired, ha, dhana meva. That is acquirable. Acquired. Vitta.
Vitta. It is acquired. So, can we also understand it is like seed also, Bhagini?
No.
Seed. Because all the trees, I mean the trees, the fruits are all acquired by seed.
No.
From the seed, it comes from
No, that is not the acquiring, this is. Something that you can acquire, that human, that we can acquire, that can be acquired. That is
right.
That's why dhana.
Dhanam
ityukte vittam. Vittam ityukte dhanam.
Right. Vittakoshe is bank and it is again pullinga shabdaha, saptami vibhakti.
Kosha kidrusha padam?
Kosha. Kosha is a pullinga shabdaha?
Api napumsakalinga.
Kosha is.
Dve api samichinam. Kosham api kosha.
Kosham and koshaha. Bhagini. Iti san. Iti shabdaha vittakoshe is napunsakalinga. So we can use it in napunsakalinga also. Kosham. Yes, Bhagini. Understand.
Agrivam?
Chikitsalaye. Chikitsalaye is in a hospital.
Chikitsa. Yatra chikitsa bhavati tatra chikitsalaya.
It is again pullinga shabdaha saptami vibhakti asti. And praudashalayam. Praudashalayam is praudashala. Stilinga shabdaha saptami vibhakti.
Prauda ityukte kim? Prauda.
Prauda. Prauda. Is it a big like that, Bhagini? Not sure.
Big, I suppose. Yeah, like grown. Like grown, like proud. Papaji, proud? Proud, huh? Agrivam karatu, Bhagini.
Bhagini. Yantrakare. Yantrakare. It is in a factory. Saptami vibhakti, yantrakare. Yantrakare. We just seen in the...
Bhagini, prouda, is... mean, prouda means adult, major, mature.
Adult. It took a grown up.
Adult. Grown up.
That is why it is called in high school.
Yes, yes. Yes, Mahalaya. Yantrakare is again pulling a shabdaha saptami vibhakti in a factory. Yantrakare. Rama shabdavat. Yantrakar. Shall I continue, Bhagini?
Ek nimisha, Bhagini. Yantrakare. Astu. Deepshika, Bhagini, padhatu agrimam. धन्यवाद शैलजा भगिनी.
आम भगिनी. भवान भवति कस्याम कक्षायाम पठति.
कक्षायाम अस्ति वा तत्र?
नो, कक्षायाम.
कक्षायाम. तत्र तु असमीचीनं शकार मूर्धन्य समीचीनं, किन्तु अत्र तु मुद्रण दोष.
कक्षायाम.
कक्ष्या. शकार
कक्ष्या
परे अकार नास्ति, शकार परे यकार अस्ति.
कक्ष्यायाम. कक्ष्यायाम.
तत्र पदं पदं किं? प्रातिपदिकं किं?
स्त्रीलिङ्गपदं कक्षा. कक्ष्यायाम.
न न न, श्रीलिङ्ग तु समीचीनं, प्रातिपदिकं वदतु भगिनी.
प्रातिपदिकं
कक्ष्या इति आकार दीर्घ आकारान्त कक्ष्या इति सप्तमी एकवचन
हा सप्तमी विभक्ति एकवचन हा लतावत्
लतावत् एव
अहं नवम कक्षायां पठामि नवम नवम में भी नहीं है अभी तो एकम में है एकम कक्षायां पठामि प्रथमा कक्षायां पठामि
एकनिमिष भगिनी एकनिमिष प्रौढ इति बहु सुन्दरं पदम् अत्र प्रयोगः वह वह धातु वह इत्युक्ते वहति गंगा वहति वहति अवगतं सर्वे वहति वह धातुतः आयाति प्रयोगः वह तदनन्तरम् एकं प्रत्यय आयाति त प्रत्यय अन्ते इत्युक्ते प्रौढम् सुन्दरमेव सी बै फ्लोयिङ्ग् ओन्ली वी बिकम् वाट् इट् इस् न वी हेव् फ्लोड् इन् टु दिस् इस् नाट् देट् ऐ एम् नाट् दिस् ऐ हेव् लैक् इन् this is a reality question when you look at a river you can ask a river what is a river is there a river yes there is a river where is the river here is the river what is the river this water is the river but this water that you call the river is no longer there now it's gone far away So when you point to a river, that river is the nature of a river is the flowingness. So you can never point to it and say, this is river. The minute you say, this is river, it has reached the ocean. So now is it river? No, it's not river. It's a very deep philosophical one. Commentary is given like that, actually. Very deep. What is reality? Papaji, vadatu?
You never dip into the same river again.
Twice. See, this is life. We can be doing the same thing every day, but you will never do the same thing twice. Because you have changed, the conditions have changed, something has changed, you have grown. That is why prouder becomes that has reached that. वह धातुतः आयाति सो ब्यूटिफुल् पुनः
एकवारं सन्धिविच्छेद वदति वा
हा हा प्र योगः वह धातु वह वह धातु हा तदनन्तरम् एकं प्रत्यय आयाति महोदय अन्ते क कृत कृत अर्धक ककार ककार अपि च त्वान्त एव भवान् तु जानाति एव त्वान्त अस्ति तप्रत्यय तदनन्तरं प्रौढ त्रिषु लिङ्गेषु तत्र दत्तमेकम् अस्तु उत्तमम् उत्तमं सुन्दरमेव Because of this, I study Sanskrit. See, amazing it gives you like, oh my God, what is adulthood? What is to mature? And this, all of a sudden now your whole perspective on that is like, wow. Did that happen? Was there any flowing? Or was I holding on the whole time? See, what we do is we hold on. If you hold on to water, it will no longer be a river.
Bhagini, where can we find for सर्वनाम शब्द के लिए दिस धातु आई मीन सॉरी द रूट वर्ड्स फॉर संज्ञा पदानी वेर कैन आई फाइंड देम भगिनी इज देर एनीथिंग बुक लाइक धातु मंजरी फॉर इट ऑल्सो
पुनः वदतु भगिनी किम
द रूट वर्ड्स फॉर संज्ञा पदम वेर कैन आई फाइंड
यू कैन नॉट जस्ट फाइंड भगिनी They are not just like uh-huh. that given. You have to, the best source, one of the really good sources is this red Sanskrita Hindi Kosh I have by Apte Mahodaya. Amana, Vamana Shivarama Apte. Sanskrita Hindi Kosha is a big, is a thick red hardbound book I have. I have uh-huh. many Shabda Koshas, but of all of them, this one is the most, I find most friendly and usable.
Bhagini, Shabda Kosha ayam eva Sandhi Vicheda eva Bhavativa?
Haa, bahu kim api dattam tatra mahodaya. Ekavaram pashyatu.
Aham krinami api.
Bhavata parshve asti va tatra?
Mama parshve nasti. Aham krinami api.
करोतु महोदय यदि यदि तत्र किमपि किम् आपण आपणतः भवान् क्रीणितवान् तदनन्तरं तत् आपणस्य नाम अपि मम पार्श्वे
प्रेषयामि भगिनि
हा किम् अहं किम् इच्छामि एकं दीपशिखा भगिन्याः गृहे अहम् अपि एकं तत्र भवेत्
स्थापितवती
इति मम इच्छा
आम् भगिनि अहम् आरभ्य अहं
एकवारं महोदय तत्र क्रीत्वा पूर्वम् एकवारं मां पृच्छतु महोदय
आमां भगिनि
किमर्थं बहु किमपि शब्दकोशे तत्र दत्तम्
आमां भगिनि
किम् उत्तमं नास्ति
नास्ति भवती भवतीं पृच्छामि
तदनन्तरं
किं दृष्टवती अहं तदेव क्रीडिष्यामि
कृपया महोदय धन्यवादः अस्तु भगिनी शैलजा भगिनी न दीपशिखा भगिनी पठतु नवमकक्षायां पठामि अस्तु अग्रिमम्
आं भगिनि अहं प्रथम कक्षायां पठामि भवतः ग्रामः
अपि च भवतः ग्रामः किं कः भवतः ग्रामः कः
भवतः ग्रामः
किमर्थं कः तत्र अपि समीचीनम् यदि अहं वदामि भवतः ग्रामः कः इत्युक्ते किं
भवतः ग्रामः कः मतलब् कौन सा
ग्राम कीदृश
कौन सा ग्राम है
ग्राम कीदृश पदम्
ग्रामः कीदृशपदम्
पश्यतु ग्रामः अत्र दत्तं ग्रामः
ग्राम इस् नपुंसकलिङ्गपदम्
अस्ति वा
हा विलेज् न
नपुंसकलिङ्गं दत्तं तत्र
मास्कुलिन् एम्
एम् इत्युक्ते किं भगिनि?
ओ सोरि, पुल्लिङ्गपदं मास्कुलिन् न, पुल्लिङ्गपदं
प्रथमकक्षायां
मास्कुलिन् को नपुंसकलिङ्ग् बोल् रहे हम्,
उत्तमम्,
पुल्लिङ्गपदं ग्राम,
पुल्लिङ्गपदम् अस्ति. भवतः ग्रामः प्रश्नवाचकशब्दः कः? ग्रामः तु प्रथमविभक्ति एकवचनरूपं, प्रश्नवाचकशब्दः कः? किं
प्रश्नवाचक कः? कः नि कः नि होगा
कः 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 कौके
कः कौके न कः
भवतः इत्युक्ते किं भगिनि?
भवतः मतलब आप, भवतः पञ्च षष्टि विभक्ति न,
प्रातिपदिकं किं
भवतः? प्रातिपदिकं भवत् भवत् तकारान्त सर्वनामपदम्.
उत्तमं. प्रथमाविभक्ति एकवचनरूपम्?
प्रथमाविभक्ति एकवचनरूपं भवान्, भवन्तौ, भवन्तः.
तदेव षष्ठी भवतः,
भवतः, भवतोः, भवताम्,
भवताम्. उत्तमं. भवतः ग्रामः कः?
भवतः ग्रामः कः? मम ग्रामः बङ्गलूरु.
बङ्गलूरु तु ग्राम नास्ति.
ग्राम नास्ति,
महानगरः अस्ति.
भोपालः. मम ग्रामः भोपाल.
उत्तम. अग्रिमं
सहजपुर.
सहजपुर, सहजपुर ग्राम नाम. अग्रिमं
कुशलं, कुशलं वा, कुशलं वा आप, कुशलं वा क्या आएगा इसमें? कुशलं वा,
कुशलं इत्युक्ते किम्?
कुशलं मतलब आपसे पूछ रहे हैं ना कि आप कैसे हैं. कुशलं, आप सब कुशल मंगल है, हम लोग बोलते हैं ना.
कुशलं वा, वा अत्र वा किं करोति तत्र?
वा
किं करोति तत्र? कुशलं वा इत्युक्ते किम्? किमपि यदि अहं वदामि, भवती अस्ति वा किं करोति? किमपि वाक्ये अस्ति वा
प्रश्नवाचक
सूचयति. प्रश्नवाचक सूचयति.
वेदर् to use it in English like
kushalam tu napumsakalingam padam asti kintu va tu avyaya padam
avyaya
ha kushalam
va kushalam na va
ha na va va na va kushalam va na va va ityukte sanskrita bhashayam now I am studying I have learned that va ityukte options are given as soon as the word va comes it means vikalpena kimapi anya api bhavitum arhati if I say kushalam va that means that is not true that everything is well other options can exist that is why I am asking that means in a place where there are options then you will use the word va because va creates options there is a nature of that meaning of that word va so that is why it's used in grammar like that also panini mahodaya bahu bahu bahuni sutrani va iti ayati hali va ashi va iti
but if you want to only ask questions then we should ask kushalim kushalam kim
किं
कुशलं कं कः कः कुशलं कः
कः कुशलं कौन् ठीक है
देन इट विल बी ओन्ली प्योर क्वेश्चन
प्योर क्वेश्चन
देयर इज नो डाउट देन
हां यू आर आस्किंग वा आल्सो इट बिकम्स अ क्वेश्चन मार्कर बट इट लीव्स अ डाउट
like maybe well, maybe not well. But if you say kushalah ka, kushalam kaha, who is well, then simply you are not saying who is not well. That question does not arise. The question is who is well.
In Telugu, we have a word which ends with va, like for, you know, bagunnava. It's like, you know, which is ending with va. It's something like, are you okay? Like that.
So you have that va concept now.
Va, yeah. Yes, Bhagini.
Hindi mein hum log kya bolenge?
But it is not different letter. It combines with the word. The letter combines with, ends with, yes. The word ends with va.
Uttamam. हिंदी भाषायां तु ठीक है ना ठीक है ना ना कम लाइक यस और नो ना मीन यस और नो ऑल्सो ऑप्शन इज देयर बट द वर्ड इटसेल्फ डज नॉट मीन ऑप्शन दैट्स द इंटोनेशन दैट क्रिएट्स द ऑप्शन हाँ उत्तम अग्रिम पठतु भगिनी
अग्रिम कुशलम वा भवान भवान आएगा वहाँ हाउ आर
यू कैन से भवान भवती और नथिंग
है ना नथिंग अच्छा कुशलम वा
भवान कुशलम वा भवती कुशलम
वा भवान कुशलम वा
भवान भवन्तौ भवन्तः भवन्तः कुशलम वा
भवन्तः अच्छा भवन्तः कुशलम वा कथमस् भवान कथमस्ति
कीदृशपदं तत्र
कथमस्ति कथमस्ति
वर्णमेलनं पदमेलनं तत्र आसीत्
कथम् अस्ति अस्ति मतलब है
कथम्
कथम् किमर्थं से आया है क्या
कथम् किमर्थं तु चतुर्थी
कथम्
चतुर्थी प्रेरयति
हौ
इत्युक्ते कीदृश प्रकारेण किं प्रकारेण हौ इन् वाट् वे इन् वाट् मेनर् डिस्क्रिप्टिव् आन्सर् कथम् अस्ति भवान् कथम् अस्ति भवती इति
कथम् अस्ति तो अस्ति क्यों लगा दिया उसमें कथम मतलब हाउ
हाउ आर यू ना अस्ति प्रेजेंट टेंस वर्तमान काले अस्ति स्तः सन्ति अस्तातुतः आयाति
अच्छा अस्ति
कथम आसीत्
आप कैसे हैं
कथम आसीत् भवती आप कैसी थी
अच्छा
अस्ति इत्युक्ते अधुना कथम अस्ति इति
अस्ति स्तः सन्ति गृहे सर्वे कुशलिनः वा गृहे सर्वे मतलब घर में सब कोई गृहे सर्वे कुशलिनः वा घर में सब कुशल हैं क्या गृहे सर्वे कुशलिनः वा सर्वकुशलम् सब लोग कुशल हैं सर्वं कुशलम् सब लोग कुशल हैं सर्वम सर्वम मतलब सब
ऑल इंक्लूसिव सर्वम
ऑल इंक्लूसिव सर्वम कुशलम कह विशेषः
वर्गस्य अन्ते वयं किं वदामः वर्गस्य अन्ते सर्वम कृष्णार्पणम अस्तु
सर्वम
जो भी कुछ हमको मिला
सर्वम
सब कृष्ण भगवान को समर्पित सर्वम इति अग्रिमम्
कह विशेषः मतलब कोई खास समाचार कह है ना कह तो हम लोग कह विशेष मतलब कुछ विशेष है क्या कोई विशेष बात है कह विशेषः
लिंगम
कह इस पुल्लिंग है ना कह का किम
कह का हाँ का तु स्त्रीलिंग किम तु नपुंसकलिंगम हाँ कह विशेषः विशेषः पदस्य विषये वदतु
विशेषः पुल्लिंग पदस्य है क्या
हाँ पुल्लिंग पदम किंतु अत्र विशेष जी योगः शेषः शेष इत्युक्ते किम
शेष
शेष इत्युक्ते किं शेष इत्युक्ते किम् अन्य कोऽपि वदतु
रिमिनेंट
रिमाइंडर
नॉट रिमाइंडर रिमाइंडर नो रिमाइंडर
रिमाइंडर
दैट दैट इज
शेष जो बचा है
शेष जो बचा है इट इज मोस्टली एवरीथिंग नो जो हमारे ज्ञान में तो एवरीथिंग जो है वो बचा ही है परमात्मा तो सब कुछ है लेकिन जो जो हमको नहीं समझ आता उसी में हम लोग की पूरी दुनिया है The shesh is the bigger part. We are stuck with our 1% and we are like, no, no, this is mine, no, this is yours. No, 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 I'll fight over you, let's have more. 1% only we are fighting over. Shesha is the Atma only.
We are exactly like those blind people describing elephant.
Ah, at least they are just describing. Hum log to ladne ko tayar. Nahi, nahi, ye mera pair hai, ye teri poonch hai. Very right. See, for us, acquisition is thing. So, in acquisition, you realize what you acquire actually is a very, 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 very... That's why the more you learn, the more you realize what you don't know. But when you don't know enough, you think you know a lot. Isn't that a very interesting human experience actually? Most of us have that experience. The more you know, the more you recognize, oh my God... This is not even a drop in the ocean. But before that, you were master of something. I was PhD in something. A double master. I was not one master. I was double master PhD with distinction. Wow, 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 wow. Now I'm like, oh my God, kuch bhi nahi pata. That's the beauty of Vishesha. Vishesha chukte kim? Jo shesha nasti hai. Means something that is not the norm. Norm is what? Atma only. Everything is Atma. That is the norm. No, but this book is red. Okay, okay. That's your Vishesha. Fine. Stick with it. So then what that... See, only Vishesha things become news. That is not normal. That becomes news. Tabhi to news channels fight and try to get hot news out there first. Why do they fight? Because they try to make instances that are normal into Vishesha. Hey, nobody is writing, oh, this apple tree is growing. That makes no news. What will make news? Oh,
God
the...
has bitten. God huh? has bitten a man.
Ah, that will news. Make news.
That's not a news. Man has bitten a dog. That is news.
Same apple tree was there in front of White House and somebody cut it. Big news. My backyard, same apple tree is there, cut it, nobody cares. Yeah, Vishesha. We are stuck on Vishesha. And when you study the sutras, Patanjali Bhagwan Yoga Sutras, you realize the finally when he takes you to the through the whole journey, he says, then you realize that when nothing is Vishesha, then you have reached Paramatma. Only then you have nothing, absolutely no Visheshas. Even in our tradition, when you become a Swami, when you become a Bhikshuka, for you, all humans to be treated the same. Even your own family becomes the same. Same as your mother is same as equal to everybody else's mother. Your siblings are same as everybody else. You are expected to start experiencing that. How do you experience it if you are stuck with your Vishesha? This is the beauty of this. Vishesha is very interesting. When you start to understand Vishesha, then you are no longer interested in news. That's why I spend no time on news. Zero. Somebody from India has to call me to tell me what is going on. So none of this is of any value. Simply it keeps our mind in motion. Kaha visheshaha. Iti tu pumlingam padam. Haan, ka varta. Ityukte kim bhagini?
Ka varta. Ka istrilinga padam. वार्ता
वार्ता इत्युक्ते
वार्तालाप वार्तालाप से है क्या वार्ता? अच्छा विशेष का नहीं, वार्ता का मतलब क्या है?
वार्ता इत्युक्ते किम?
वार्तालाप से है ना, बातचीत,
वार्ता माने बातचीत,
बातचीत है ना। तो का वार्ता क्या स्त्रीलिंग पदम, क्या क्या बातचीत, कोई खास बात?
हाँ, यम भाषणं, हाँ, यम भाषणं अभवत सा वार्ता,
सा वार्ता
या हाँ यम संभाषणं अभवत, किमपि संभाषणम् अस्ति अभवत, किमपि संभाषणं अभवत सा वार्ता। वार्ता तो स्त्रीलिंगम पदम, वो बात, कौन सी बात? वो जो हो चुकी वहां पे।
अच्छा तो इसलिए सा लगेगा क्योंकि वो इस,
हाँ,
क्योंकि वार्ता स्त्रीलिंग है तो इसलिए सा लगेगा उसके साथ।
का वार्ता, क्या बात हुई? आफ्टर ऑल व्हाट इज न्यूज? गॉसिप ओनली इज न्यूज। एवरीथिंग वी चूज टू गॉसिप अबाउट दैट ओनली इज न्यूज। दैट्स व्हाट न्यूज चैनल्स आर फाइटिंग ओवर, कैन आई मेक द हॉटेस्ट गॉसिप, मोर पीपल टॉकिंग अबाउट द न्यूज आई पब्लिश, द बेटर न्यूज पेपर आई एम, दिस इज देयर गोल, एंड वी आर ऑल सकर्स फॉर दैट।
भवता एव वक्तव्यम,
वक्तव्यम,
वक्तव्यम, भवता एव वक्तव्यम,
वक्तव्यम। हाँ, इति पदस्य विषये किमपि जानाति वा कोऽपि? वक्तव्यम,
वक्तव्यम विधिलिङ्गिकारे इव अस्ति, प्रत्यय उपयुज्य अस्ति, अनियर तव्यत् प्रत्यय उपनीय अस्ति।
तव्यत् धातु किम्?
उत् धातु,
उत् वा
वक्त, वक्तव्यम् उक्त्वा,
उच्च
उच्च
उत्तमं। वच् धातु अदादिगणे अस्ति, वच् धातुतः किं रूपं, रूपाणि कानि? वक्ति, वक्तः, वचन्ति, वक्ति,
वक्ति,
वक्ति, वक्तः, वचन्ति,
वचन्ति।
किमर्थम् अदादिगणे अस्ति चेत् किमपि विकरणप्रत्यये
नास्ति?
उत्तमं, विकरणप्रत्यये नास्ति चेत्। सुधा भगिनी अवगतं वा?
आं भगिनि।
हा, ति कथम् आयाति? तिङ् प्रत्यय अस्ति,
तिङ् प्रत्यय।
हा, तिङ् इत्युक्ते किं सुधा भगिनी?
ति आरम्भतः ङ इति अक्षरे किमपि पर्यन्तं किमपि किमपि अक्षरे अन्तिमे आयाति इति तिङ् प्रत्ययः अस्ति।
अर्थः किं तिङ् इत्युक्ते किम्? एकं तु प्रत्यय अस्ति न, धातुतः तु आयाति, हा, धातुपरे तिङ् प्रत्यय आयाति, तदनन्तरं भवति, वक्ति, पश्यति, ईक्षते।
लट् लकारे प्रथमविभक्तिरूप अस्ति, एकवचनरूप।
हा, लट् अपि लोट् अपि सर्वाणि तिङ् प्रत्ययान्त पदानि अस्ति। इत्युक्ते किं? क्रियापदस्य अन्ते तिङ् प्रत्यय अस्ति, साधारणतया क्रियापदस्य अन्ते किम् अस्ति? तिङ् प्रत्यय अस्ति। तिङ् पद, तिङ् तिङन्तपदम् इत्युक्ते किं? क्रियापदं, किमपि क्रिया सूचयति। तिङन्तं पदं क्रियासूचकं पदम् अस्ति, तिङन्तं। सुबन्तं पदम् इत्युक्ते किम्?
संज्ञा सूचयति।
संज्ञापदं सूचयति, उत्तमं, तदेव। संज्ञा इत्युक्ते किं? संज्ञापदम् इत्युक्ते किम् आङ्ग्लभाषायां वदतु?
नाउन
नाउन सुप सुप अन्ते सुबन्तं पदम् इत्युक्ते नाउन वर्ड्स नेम वर्ड्स संस्कृतभाषायां नेम वर्ड
प्रातिपदिकस्य अन्ते किम् आयाति प्रत्यय आयाति तदेव सुप् वदति
धातुतः तु सुप् न आयाति
धातु नास्ति प्रातिपदिकस्य अन्ते
प्रातिपदिकस्य अन्ते सुप् आयाति धातुतः तिङ् आयान्ति
धातुतः
तदनन्तरं हा पाणिनि महोदय एकं सूत्रं वद उक्तवान् किं सुप्तिङन्तं पदम् एकं सूत्रमस्ति सुप्तिङन्तं पदम् इत्युक्ते किं पदं
सर्वाणि सर्वाणि शब्दानि
हा हा पदस्य परिभाषा पदं किम् एकं प्रश्नः अस्ति पदम् इत्युक्ते किम् पदं किं सुप्तिङन्तं पदम् प्रातिपदिकस्य अन्ते सुप् आयाति धातुतः तिङ् आयाति किमपि सुपन् सुप् सुबन्तम् अस्ति चेत् वा तिङन्तम् अस्ति चेत् तदेव पदम् तेन वयं जानीमः प्रातिपदिकं तु पदं नास्ति धातुपदं नास्ति कथं जानीमः धातुपदं नास्ति अन्ते तु किमपि नास्ति अत्र तदेव वयं धातु इति वदामः प्रातिपदिकम् इति वदामः किमर्थं प्रातिपदिकम् इत्युक्ते किमपि अन्ते नास्ति तत्र नाट् रेडि टु गो औट् पदं नास्ति उत्तमं तदेव वक्ति उत्तमम् अग्रिमं पठतु दीप्षिका भगिनी अन्य कोऽपि शिवरूपा भगिनी अपि व्याकरणवर्गे अस्ति
वा अहं प्रथमतया वदामि वदति
अवगतं सुप्तिङन्तं पदम् अवगतं किञ्चित्
आं भगिनि
हा 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 किं लक्ष्मीभगिन्याः वर्गस्य अपि सुब्रह्मण्यमहोदय अस्ति किम्
लक्ष्मीभगिनी
एकवारं सर्वे सुब्रह्मण्यमहोदय महोदय महोदयस्य वर्गम् अपि एकवारं शृणोतु कृपया ध्वनिमुद्रणं शृणोतु प्रारम्भतः
सुब्रह्मण्यः महोदयस्य नायाति ईमेल् अहं न मिलति
महेश महोदय कृपया प्रेषयतु सर्व
प्रेषयामि
धन्यवादः
प्रेषयामि
धन्यवादः महोदय
बहु बहु उत्तमं सुब्रह्मण्यमहोदय अपि बहु उत्तमं स्पष्ट जात उत्तम अध्यापक सुब्रह्मण्यमहोदय प्रथमवर्गस्य तः एकवारं सुधा भगिनी शिवरूपा भगिनी किमपि अत्र अस्ति शैलजा भगिनी दीप्षिका भगिनी अपि समय अस्ति चेत् पापाजी अपि बहु बहु उत्तमं रीत्या वर्गस्य
महोदय एकस्य विषयः वारं वारं वदति चेत् सम्यक् अवगच्छामि
भगिनी महोदयस्य कक्षाया समयः कति
भानुवासरे भानुवासरे सायङ्काले सपाद चतुर्वादन पर्यन्तं सपाद भारतदेशस्य समयः सपाद चतुर्वादनपर्यन्तं षड्वादन
हौ मेनि लेसन्स् आर् ओवर् सो फार् महोदय
पञ्च कक्षायां भवति बट् नाट् मच् हेस् बिन् कवर्ड् सो यु केन् ईज़िलि मेक् अप्
धन्यवादः भगिनि, धन्यवादः महोदय.
He repeats many things again and again. So though there are 5 sessions covered, but the topic covered is just introduction to Ganaha, that's all.
Oh, very nice. Okay.
Vyakarana Varga.
Please send those things.
I will post it after the class. So you can go through the recordings.
Sure.
I think, do I have to give an email to Swaroop Mahodaya to get a link for joining, the joining link, Mahodaya?
Ma'am, Bhagini, I think you should do that.
You should do that.
That was already sent, but anyway, now
I think I'll email Swaroop Mahodaya.
Swaroop Mahodaya, he will definitely send you the link to join.
And maybe.
But Mahodaya, I think you might be having that meeting. If we'll get meeting ready, that is enough, right?
Yes, that is enough. That is enough.
No. But it's good to get his emails also. She's right. Shailaja Bhagini. Who wants to enter? You send me your information.
Yes.
Now,
Bhagini, like, it's me.
WhatsApp or so if you don't send an email, I will not remember. Then I can write to Mahodaya and put all
Bhagini.
The
sure, Bhagini. Please, I am interested.
Sure. I am also interested, Bhagini.
Sudha Bhagini, Api. 3 of you. Okay. I'll send it to Swaroop Mahodaya.
Thank you.
Thank you, Bhagini. Thank you. Dhanyavadah, Bhagini.
Bhagini, one more thing here I would like to remind. The next, from this Sunday, our timing, daylight saving will start, Bhagini. So, for India, so how we can adjust the time, like it suggests?
So, for you...
For Bhagini, for the next 3 months, there is no problem.
Okay.
Actually,
it will be what? What will it become for you? It will become... Bhagavad Gita, sorry, kya sutra will also become at... What if we retain the same time? 7:15 in the morning for this thing, sutra, and then 8:30 for this. Is okay? No, not okay for you guys.
I am good, Bhagini, but for Bhagavad Gita, it will be like 10:30 for them night.
Oh, astu. India
so
time.
10:30 means it will end nearly 12:30 like that. It's very...
That's late. Hold on. Let me see. I had made a schedule. So Tuesday, Sutra class will be 5:45 p.m. No, 7 p.m. No, it will be our time. India time, Mahodaya?
Bhagini, for Sutra class, there is no issues. It will be evening only.
So 5:45 it starts, no? How can it be 45? That doesn't make sense.
No, Bhagini. At present, you are starting your time at 7:15. Means there it might be like 5:45 as you said.
Correct. Okay?
But henceforth, coming weeks, it will be 6:45 for them.
Oh, asti, wow. No, but I don't mind if it is... if we stick to the same time, and then 7 o'clock, I think, Shamko. This time is what time, Mahodaya, for you?
8:30 in India. 8:30 in India.
Now?
Now.
So it started at 7.
7 to 8:30, Bhagini, but...
I should start at 6, is what you are saying. I should start at 6. It's too late for you if we stick to... So then it will become 8 to 9:30. Is that too late for people?
I don't mind, Bhagini, but I'm...
No, for India people. Will that be too late? 8 o'clock if we start this class next Tuesday, Wednesday. Will that be too late for anybody?
No, it's okay. 8 to 9:30.
Everybody's okay
then
with
on
that time?
Tuesday. Then Wednesday, 9:30 is your Bhagavad Gita class.
That will also move. That will become then very late.
Because 9:30 of Bhagavad Gita class starts, which ends at 11 in the night.
7 to 8:30.
No, Deepshika Bhagini. That will start at 10:30 and ends at 12 o'clock.
Okay. That will also shift by 1 hour. Okay.
Oh, that's too late. So I'll move the Bhagavad Gita by 1 hour in advance, Bhagini.
But on Wednesdays, Bhagini, we'll be having up to 11 o'clock this class, right?
Oh, yeah. Yeah, yeah. Let's figure this out. I'll move the, for the Bhagavad Gita day, for sure we'll have to move it.
Yes, Bhagini.
But, and maybe we should keep the same time. So in our head, it is at the same time, Tuesday, Wednesday. So maybe we should move everything by 1 hour in India. Is that okay for everybody?
Yes, Bhagini. Tomorrow, Kavita Bhagini and others.
So it will be 8 o'clock India time, Bhagini, from next Wednesday onwards? That's next, what you're saying?
Yes,
next
yes,
Tuesday, yes. Wednesday, 8 to 9:30. Yes. 8 to 9:30.
Right, because the daylight have the saving has ended for us this Sunday. So I realized it is like 1:30. I have to join today in, according to UK time. So basically, I thought it is going to be 2:30, but all of a sudden, that's the reason for coming late for me, Bhagini, 10 minutes late.
So this Sunday.
So it is going to be 8 o'clock. Means 8 o'clock is. Something
no, I think we have to move it back because otherwise the Bhagavad Gita will be very late.
So exactly,
we
have to
move both the classes forward. No?
Yes, Bhagini.
So right now it is 8:30. So this class starts at 7 o'clock. But
7 o'clock in your time.
Next week, if I stick to my time here, then it will become 8 o'clock your time.
Yes.
That will be, and then after that is Bhagavad Gita. So it will be really late. So let's move this class to India time, 7 p.m. next week onwards.
That's
so
the same
our,
time.
Instead of 7, there 6 means, Bhagini, here we have to join at 8:30.
She's talking
your
about...
Clock will have changed next week.
Yes,
yeah, for us, it will be 8:30, Bhagini, Shivarupa Bhagini. For the Eastern people, it will be 8:30 in the morning.
But now also we start at 8:30 in the morning.
No, Bhagini.
Now it is 9:30, Bhagini.
No, for you. Oh, okay. You are East Coast.
Yeah.
You will be 8:30. Then your morning class, Sutra class, will be at 7:15, which has been my time for me.
Ah, yes, okay, Bhagini.
For you? That for you, it will be 6:15.
No, it will be for me 5:15.
Oh, yeah, exactly.
That's Bhagini. Okay. 5:15 p.m. is okay for
me. But Bhagini won't be in America. She will be in India from next week. So it makes no difference to her. 3 months she will be in India.
Oh, okay.
by then the daylight savings would have changed and again.
Changed, yes.
No, Mahodaya, it will be in March. It
March,
will again start.
March
till March we'll be having.
March
so
will decide.
We'll ask Bhagini to stay until March in India only.
Yeah.
Shivruka Bhagini, what are you talking about? Sutra? Sutra classes? What is that? Sutra classes?
Oh, I teach also one sutra class. I try to teach. I lead it in the morning on Tuesdays. I've been doing that now. And Bhagavad Gita on Wednesdays. We can talk about that in another. Please let her know in WhatsApp or let her know. Shivrupa Bhagini, please include.
Sure, Bhagini.
Okay, so we'll move this class. Deepshika Bhagini will help me understand. Once I reach India, I'll be so disoriented for the first few days. Deepshika Bhagini will keep me on track. Vastu, let's get back to class. And where are we? Can we finish this section? Anybody not got a chance today to speak?
Kshamyatam Bhagini.
You have to go.
I'm taking leave, Bhagini.
Astu, namaste,
Mahoday.
Namaste. Astu, Deepshika Bhagini. Samapayatu Bhagini, Atra.
Bhavata eva vaktavyam kopi visheshah. मतलब कोई खास चीज है क्या कोपि विशेष
भवान विशेष कोपि भवति कह अपि विशेष संधि कृत्वा कोपि इति आयाति
अच्छा कह अपि कोपि अच्छा
कह अपि कोपि भवति अग्रिमं
कह भवान भवति कुतः आगच्छति कुतः किधर से आ रहे
कुतः तह आयाति वियोग
कुतः कहां से है ना
गच्छति आगच्छति विपरीतार्थक विपरीतार्थक उत्तमम् अग्रिमः
अहम् शालातः ग्रहतः, अच्छा शालातः मतलब स्कूल, ग्रहत मतलब घर, अहम शालातः
घर से, दीक्षिका भगिनी शालातः इत्युक्ते शालात से,
शालात से घर से,
ग्रहतः घर से,
घर से घर,
पंचमी
विभक्ति अर्थ रूपम तु नास्ति, अर्थ अर्थ तु पंचमी विभक्ति समानेव, सः कोशतः विद्यालयतः आपणतः मन्दिरतः किमपि तः तः इति करोति उत्तमं. विरमाम वा अधुना
भगिनि?
भगिनि अस्तु अस्तु अस्तु. हा पापाजी शान्तिपाठ एकवारं वदतु. हा हा
पूर्ण बोलिए.
पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः सर्वेभ्यः. नमो नमः. अधुना